सप्तमोऽध्यायः श्रीभगवानुवाच मय्यासक्तबलाः पार्थ योगं युञ्जन्मदाश्रयः असंशयं समग्रं मा यथा ज्ञास्यसि तच्छृणु। सविज्ञानम् इदं वक्ष्याम्यशेषतः यज्ञात्वा नेह भूयोऽन्यत् ज्ञातव्यम् अवशिष्यते। कश्चित् यतति सिद्धये यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः। अपरेयम् इतस्त्वन्याम् प्रकृतिम् विद्धि मे परा परतरं नाद्यत् किञ्चिदस्ति धनं जया मयि सर्वं इदं कोटं सूत्रे मणिगणादिव। शोकम् अप्सु कौन्तेया प्रभास्मि शशिशोययोः शब्दः हे पौरुषं नृषु तेजश्चास्ति विभावसौ जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु सर्वभूतानां विद्धि पार्थ सनातनम् बुद्धिः बुद्धिमताम् अस्मि तेजः तेजस्विनाम् अहम् चतुर्विधाः भजन्ते मां जनाः सुकृतिनोऽर्जुन जिज्ञासु अर्थार्थी ज्ञानी च भरत ऋषभा एक भक्ति विशिष्यते प्रियो हि ज्ञानिनोत्यर्थम् अहम् स च मम प्रियः देवां देवयजो या అవ్యక్తం వ్యక్తిమాపన్నం మన్యంతే మాం అబుద్ధయః పరం భావం అజానంతో మమావ్యయం అనుత్తమం. సదితి శ్రీమద్భగవద్గీతాసు ఉపనిషత్సు బ్రహ్మ విద్యాయాం యోగశాస్త్రే శ్రీకృష్ణార్జున సంవాదే జ్ఞాన విజ్ఞాన యోగో నామ సప్తమోధ్యాయః।